इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना ह्यः असमराज्ये प्रायः 5,500 कोटिरूप्यकाणाम् अनेकासां विकासपरियोजनानाम् उद्घाटनं ध्वजप्रदर्शनं च कृतम्। प्रधानमन्त्री अवदत् यत् गत 11 वर्षेषु 5.5 लक्ष कोटिरूप्यकाणि पूर्वोत्तरस्य कृते आवंटितानि, तथा च क्षेत्रस्य आधारभूत संरचना क्षेत्रेषु अभूतपूर्व विकासः दृश्यते।
इस साल के बजट में नॉर्थ ईस्ट की कनेक्टिविटी को और अधिक मजबूती देने का काम किया गया है। कनेक्टिविटी बढ़ती है तो रोजगार के अवसर भी बढ़ते हैं, इसलिए असम में हाईवे और अन्य रोड प्रोजेक्ट के लिए करीब 1,000 करोड़ रुपए देना तय हुआ है।
दिल्ली हरियाणा महाराष्ट्र कर्नाटक राज्येषु विभिन्नेषु मण्डलेषु व्याप्तानां तिसृणां बहुविध परियोजनानां कृते मन्त्रिमण्डलेन अनुमोदनं प्राप्य रेलविभागस्य आधारभूत संरचनाः सुदृढं भविष्यन्ति। परिवहन व्ययं न्यूनीभविष्यति, तथा च यूनां कृते वृत्त्यवसराणां सृजनं भविष्यति इति मन्त्रिणा उक्तम्। हैदराबाद पणजी आर्थिक मार्गस्य गुडेवेल्लूरतः महबूबनगर पर्यन्तं राष्ट्रीय राजमार्गस्य 67.1% विस्तारस्य निर्णयः आर्थिक वृद्धिं वर्धिष्यति, वृत्त्यावसरस्य सृजनं करिष्यति, जीवनस्य सुगमतां च वर्धिष्यति इति श्रीमोदिना उक्तम्। प्रधानमन्त्री श्रीमोदी अवदत् यत् मन्त्रिमण्डलेन गोहपुर नुमालीगढ नगरयोः मध्ये चतुर्मार्गीय अभिगम नियन्त्रित ग्रीनफील्ड मार्गम् अपि अनुमोदितमस्ति, यस्मिन् ब्रह्मपुत्रस्य अधः भारतस्य प्रथमः जलान्तरगामी मार्गः तथा रेल सुरंगमार्गः च अपि अन्तर्भवति। सः अवदत् यत् एताः परिवर्तनात्मक परियोजनाः सम्पर्करूपेण वर्धिष्यति, रसदव्ययं न्यूनीकरिष्यति, तथा च सम्पूर्णे असमराज्ये तथा सम्पूर्णे पूर्वोत्तरे च विकासस्य गतिं वर्धिष्यति। नोएडा 42,100 विभागात् बोटेनिकल गार्डन नोएडा पर्यन्तं मार्गस्य विस्ताराय अपि मन्त्रिपरिषदः अनुमतिं दत्तवान् इति श्रीमोदी अवदत्। सः अवदत् यत् अयं निर्णयः नोएडा नगरस्य विकासयात्रायाः गतिं वर्धयिष्यति। केन्द्रीय मन्त्रिणा शिवराज सिंह चौहानेन कांग्रेस दलं राष्ट्रस्य हितम् उपेक्षते इति आरोपितवान्। सामाजिकान्तर्जालीय पटले श्री चौहानः अवदत् यत् अधुना देशः महत्वपूर्ण आर्थिक अवसंरचनां विभिन्नेषु चरणेषु गच्छन्नस्ति, परञ्च दुर्भाग्यमस्ति यत् कांग्रेस दलं राहुल गांधी च असत्यस्य भ्रमस्य च प्रसारणे निमग्नौ स्तः। विदेश मंत्री डॉ एस जयशंकरः ह्यः म्यूख सुरक्षा सम्मेलनावधौ जर्मन विदेश मंत्रिणा जोहान वॉडेफुल इत्यनेन सह द्वैपाक्षिक मेलनं कृतवान्। सामाजिकान्तर्जालीय सन्देशे डॉ जयशंकरः अवदत् यत् मेलनावधौ उभौ पक्षौ विविध क्षेत्रेषु सहकारस्य प्रगतिं समीक्षितवन्तौ, क्षेत्रस्य हॉटस्पॉट विषये च चर्चितवन्तौ। विदेशमन्त्रिणा कनाडा देशस्य विदेशमन्त्रिणा अनीता आनन्देन सहापि मिलित्वा अवदत् यत् भारत कनाडा देशयोः सम्बन्धः निरन्तरं प्रगतिं कुर्वन् अस्ति। केन्द्रीय वित्तमन्त्री निर्मला सीतारामनः ह्यः जर्मनी देशस्य म्यूख नगरे बवेरिया देशस्य यूरोपीय अन्ताराष्ट्रिय कार्यमन्त्रिणा श्री एरिक वेसवेंगर इत्यनेन सह मेलनं कृतवती। सामाजिकान्तर्जालीय सन्देशे श्रीमती सीतारामनः अकथयत् यत् अस्मिन् वर्षे जनवरी मासे जर्मन चान्सलर वर्यस्य सद्यः एव भारत भ्रमणावधौ उभौ राष्ट्रौ सुदृढ द्वैपाक्षिक सहभागित्वस्य विषये चर्चितवन्तौ। महाशिवरात्रि पर्व अद्य सम्पूर्णे देशे हर्षोल्लासेन आध्यात्मिक उत्साहेन च आचर्यते। भगवतः शिवस्य भक्तानां कृते पवित्र तमेषु अवसरेषु अन्यतमः अयं दिवसः व्रतेन विशेष प्रार्थनया च सह मन्दिरेषु रात्रिपूजया सह चिह्नितः भवति। सहस्रशः भक्ताः तीर्थस्थानेषु पवित्रं निमज्जनं कृत्वा शान्तेः समृद्धेः च आशीर्वादं प्रार्थयन्ति। आईसीसी पुरुषाणां 20-प्रति20 क्रिकेट विश्व चषक स्पर्धायाम् अद्य अपराह्णे पाकिस्तान दलेन सह भारतं स्पर्धिष्यति इति वार्ताः।